सदा सत्स्वरूपं चिदानंदकंदं जगत्संभवस्थान संहारहेतुं स्वभक्तेच्छया मानुषं दर्शयन्तं
नमामीश्वरं सद्गुरुं साईनाथं नमामीश्वरं सद्गुरुं साईनाथं
भवद्वान्त विध्वंसमार्तांडमीड्यं मनोवागतीतं मुनिर्ध्यानगम्यं जगद्व्यापकं निर्मलं निर्गुणं त्वां
नमामीश्वरं सद्गुरुं साईनाथं नमामीश्वरं सद्गुरुं साईनाथं
भवां बोधिमग्नार्दितानां जनानां स्वपादाश्रितानां स्वभक्तिप्रियाणां समुद्धारणार्थं कलौ संभवन्तं
नमामीश्वरं सद्गुरुं साईनाथं नमामीश्वरं सद्गुरुं साईनाथं
सदा कल्पवृक्षस्य तस्याधिमूले भवद्भावबुद्ध्या सपर्यादिसेवां नृणां कुर्वतां भुक्तिमुक्तिप्रदन्तं
नमामीश्वरं सद्गुरुं साईनाथं नमामीश्वरं सद्गुरुं साईनाथं
अनेकाश्रुता तर्कलीला विलासै समाविष्कृते स्यान भास्वत् प्रपंचम् अहं भावहीनं प्रसन्नात्मभावम्
नमामीश्वरं सद्गुरुं साईनाथं नमामीश्वरं सद्गुरुं साईनाथं
सतां विश्रमारामेवाभिरामं सदा सज्जनैः संस्तुतं सन्नमद्भिः जनामोददं भक्तभद्र प्रदन्तं
नमामीश्वरं सद्गुरुं साईनाथं नमामीश्वरं सद्गुरुं साईनाथं
अजन्माद्यमेयं परं ब्रह्म साक्षात् स्वयं संभवं राममेवावतीर्णं भवद्दर्शनात् संपुनीतः प्रभोहम्
नमामीश्वरं सद्गुरुं साईनाथं नमामीश्वरं सद्गुरुं साईनाथं